अथ एकविंशः पाठः प्रथमः खण्डः अस्ति हस्तिनापुरे विशालो नाम रजकः तस्य गर्दभोतिवाहनाद्दुर्बलो मुमूर्षुरिवाभवत् ततस्तेन रजकेनासौ व्याघ्रचर्मणा प्रच्छाद्यारण्यसमीपे सस्यक्षेत्रे नियुक्तः ततो दूरातमवलोक्य व्याघ्रबुद्ध्या क्षेत्रपतयः सत्वरं पलायन्ते अथैकदा केनापि सस्यरक्षकेण धूसरकम्बलकृततनुत्राणेन धनुःकाण्डम् सज्जीकृत्यानतकायेनैकान्ते स्थितम् तम् च दूराद्दृष्ट्वा गर्दभः पुष्टाङ्गो यथेष्टसस्यभक्षणजातबलो गर्दभीयमिति मत्वोच्चैः शब्दम् कुर्वाणस्तदभिमुखम् धावितः ततस्तेन रक्षकेण गर्दभोऽयमिति चीत्कारशब्दात् निश्चित्य लीलया व्यापादितः।